विभासो मामभियमुग्रदर्थ पूर्वम् गव्यमहीर्णानयन्द्र यो दृष्णोऽवधीरो वज्रहस्त विश्वा वृत्रमभित्रियासवोभिः सयीम् पाहि यद्जीषीतरुत्रो यस्य विप्रवान्षभोजोदीनाम् योगोऽत्र भृद्वज्रभृद्यो हरिष्टाः सयन्द्रजिताम् अभिरुन्धिवाजाय देवा पाहि प्रत्नसामुन्दृत्वाभिः आदिसूर्यम् कृणुहिभिः जहिशत्रोऽङ्ग्रभिगायन्द्रदन्धि हे त्वामदाः बृहदिन्द्रस्वधामे भीता मुक्षयम् तद्युमन्तम् महानूनम् तपसं विभूजिम् मत्सरासो जर्हृणन्तप्रदाहम् एभिः सूर्यमुषसं मन्दसारोपासयोपजुढानि महामध्यम् परिगायम् रसन्तम् नुत्थाच्युतम् सदसस्परि स्वात् सभक्रत्वातमदध्वंसनाभिरामासो भक्वंसचारिजीयुराभ्यो विदृढो दूर्वाद्गाद्रिभो अङ्गीरस्वाल् अप्राधक्षाम् महिगम् सोऽव्योर्वीमुपद्यामृष्टो बृहदिन्द्रस्तभाजः अधारयो रोदसी देवपुत्रे प्रत्ये मातराजीर्दस्य अधत्वा विश्वे पुर इन्द्रदेवायेकम् तपसम् दधिरे भराय अदे भोजदभ्यौहितदेवान् स्वर्णादावृणत इन्द्रमत्र अधद्यौश्चित्ते अपदानुवज्राद्धितानामध्ययता त्वस्य मन्योः अयम् यदिन्द्रो अभ्योहदानम् निचित् विश्वायुस्सयधे जघान अधत्वष्टा ते महौग्रवज्रम् सहस्राभृत्यम् अवृतच्छदाश्रिम् निगामपरमाण संयेन लवन्तमहिम् संवीणवृजीषिम् वर्धान्यम् विश्वे मरुतः सजोडाः पदच्छदम् माहिणाङ्गिम् पूरा विष्णोत्रीणि सरांसि धामम् व्रतरहणम् मधिरमम् सुमस्मै आक्षोदो मयि मृदम् नदीनाम् परिष्ठितमसृजमूर्मिभवाम् तामनुप्रमद इन्द्रपन्थाम् नार्तयो नीचीरपसः समुद्रम् एवाता विश्वाय गृहाम् समिन्द्रम् महामुग्रमयुर्यम् स होदाम् शिवीरम् त्वा स्वायुधम् सुभद्रमा ब्रह्मणव्यमवदेववृत्यात् स नो वाजाय स्रवसयिषे च राजे धेहि जुमद इन्द्रविप्रान् भरद्वाजे नृगद इन्द्रसूरीम् दिविदस्मै धिवार्येण इन्द्र अयावाजम् देवहीनम् सने मम देव सतहीमा सुवीराः